व्रजेपशिद्धं नवनीतचोरं गोपांगनानं च दुकुलं च चोरं अनेकजन्माजित पापचोरं चोरग्रगणं पुरुषं नमामि श्रीराधिकाया हृदयस्य चोरं नाबाम्बूद शैमलकान्तिचोरं पदाश्रितानं श्यामस्थलचोरं चोराग्रगन्नं पुरुषं नमामि।
आमादेर शेई प्रियो छोट्ट गोपालेर उद्देश्ये आजकेर निवेदन।